श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ द्वादशोऽध्यायः श्रीभगवानुवाच नरोधयति मां योगो न सांख्यं धर्मैव च न स्वाध्यायस्तपस्त्यागो निष्ठापूर्तन्न दक्षिणा व्रतानि यज्ञश्चन्दंसि तीर्थानि नियमायमाः यथा वरुन्धिनी सत्सङ्गस् सर्वसङ्गापहो हि माम् सत्सङ्गेन हि दैते खगाः गन्धर्वाप्सरसो नागास्सिद्धाश्चारणगुह्यकाः विद्याधरा मनुष्येषु वैश्याशूद्रास्त्रियोऽन्त्यजाः रजस्तमः प्रकृतयस्तस्मिंस्तस्मिन् युगे नग बहवो मत्पदं प्राप्तास्त्वाश्रकायाधवादयः वृषपर्वावलिर्बाणो मयश्चाथ विभीषणः सुग्रीवो हनुमान् वृक्षो गजो रुद्रो वणिपथः व्याधः कुब्जाव्रजे गोप्यो यज्ञपत्न्यस्तथा परे तेनाधीतश्रुतिगणानोपासितमहत्तमाः अव्रता तप्त तपसः सत्सङ्गान् मामुपागताः केवलेन हि भावेन गोप्यो सिद्धा मामीयुरैजसा यन्न योगेन सांख्येन दानव्रततपोध्वरैः व्याख्या स्वाध्यायसन्न्यासैः प्राप्नुयाद्यत्नवानपि रामेण सार्धं मथुरां प्रणीते श्वाफल्किनामय्यनुरक्तचित्ताः विगाढभावेन न मे वियोग तीव्राधयो सुखाय ताप्ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण क्षणार्धवत्ता हीना मया कल्पसमाबभूवुः तानाविदन्मयी अनुषङ्गबद्ध धियस्वमात्मानमदस्तथीदम् यथा समाधौ मुनयोऽभितो ये नद्यः प्रविष्टा इव नामरूपे मत्कामारमणैजार मत्स्वरूपविदो बलाः ब्रह्ममां परमं प्रापुस् सङ्गाच्छतसहस्रशः तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनां प्रवृत्तै च निवृत्तै च श्रोतव्यं श्रुतमेव च मामेकमेव शरणमात्मानं सर्वदेहिनां या हि सर्वात्मभावेन मया स्याह्यकुतो भयः उद्धव उवाच संशयशृण्वतो वाचं तव योगीश्वरेश्वर न निवर्ततात्मस्थो येन भ्राम्यति मे मनः श्रीभगवानुवाच स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः मनोमयं सूक्ष्ममुपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः यथा नलक्खे निलबन्धुरूष्मा बलेन दारुण्यधिमथ्यमानः अणुः प्रजातो हविषा समिध्यते तथैव मे व्यक्तिरियं हि वाणी एवं गदिक् कर्म गतिर्विसर्गो घ्राणो रसो दृक्स्पर्शश्रुतिश्च सङ्कल्पविज्ञानमथाभिमानस् सूत्रं रजसत्त्वतमो विकारः अयं हि जीवस्त्रिवृदब्जयोनि रव्यक्त एको वयसा साध्यः विश्लिष्टशक्तिर्बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् यस्मिन्निदं प्रोतमशेषमोतं पटो यथा तन्तुवितानसंस्थः य एष संसारतरुः पुराणक् कर्मात्मकः पुष्पफले प्रसूते द्वेयस्य बीजे शतमूलस्त्रिनालः पैचस्कन्धः पैचरसप्रसूतिः दशैक शाखो द्विसुपर्ण नीडस् त्रिवल्कलो द्विफलोर्कं प्रविष्टः अदन्ति चैकं फलमस्य रुद्रा ग्रामे चराय कमरण्यवासाः हंसाय एकं बहुरूपमिज्यैर् मायामयं वेद स वेद वेदम् एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः विवृश्य जीवाशयमप्रमत्तः सम्पद्य चात्मानमथ त्यजास्त्रम् इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे द्वादशोऽध्यायः ॐ